रेडियो नेपालः सम्प्रति समाचारः श्रीयन्ताम् प्रवाचकः ध्रुव भट्टराई। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य काष्ठमण्डपे सञ्चाल्यमाने स्थायी समिति उपवेशे यः अष्टादश सदस्या धारणाम् व्यक्तवन्तः। उपवेशे नेपाल भारतयो सीमा सम्बद्ध समस्या विषये विमृष्टम्। यो भाषमाणा सदस्या कूटनीतिक प्रयासस्य वार्तायाश्च माध्यमेन भारतेन सह सीमा समस्याम् समाधातुम् सर्वकारम् अनुरुन्धन् इति। उपवेशस्य पश्चात् नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य प्रवक्ता नारायणकाजी श्रेष्ठः अज्ञापयत्। सदस्य नेपालस्य सम्पूर्ण भूभागै समाविष्टस्य मानचित्रस्य प्रकाशने संविधानस्य संशोधने च धृताम् राष्ट्रियकताम् संस्थाप्य सीमा सम्बद्धानाम् सर्वासाम् समस्यानाम् समाधानाय प्रयतितुम् परामृशन् इति प्रवक्ता श्रेष्ठ अवोचत्। प्रवक्त्रा श्रेष्ठेन प्रदत्तस्य ज्ञापनस्य अनुसारेण उपवेशस्य प्रारम्भे परराष्ट्र मन्त्रिणा प्रदीप ज्ञवालिना भारतेन सह विद्यमानया सीमा समस्याया समाधानाय विहितस्य प्रयासस्य पश्चात्तन घटनाक्रम सम्बन्धी ज्ञापितम् आसीत्। उपवेशे परराष्ट्रमन्त्रिणा ज्ञवालिना सम्प्रति चीनदेशेन सह कापि समस्या नास्तीति च ज्ञापितमिति प्रवक्ता श्रेष्ठः अवदत्। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य स्थायी समिति उपवेश अद्य पूर्वाह्नस्य एकादशवादने पुनर्वसति। प्रतिनिधि सभाया विकास प्रविधि समित्या सर्वकारस्य आधिकारिकाणाम् ईमेल वेबसाइट सामाजिक संचार सञ्जालानाम् सुरक्षायाम् गोपनीयतायाम् च सचेष्टः भवितुम् सर्वकार निर्दिष्टोऽस्ति। समिते गतदिने सिंहप्रासादे उपविष्टेन उपवेशेन सर्वकारीयाणाम् वेबसाइट वैद्युत सञ्जालानाम् अनिवार्य रूपेण परीक्षणाय नैज क्षेत्रेण पञ्जीक्रियमाणानाम् विषय क्षेत्राणाम् सर्वकारीय निकायात् विधानस्य व्यवस्थाम् कर्तुम् नेपाल सभ्यन्तरे प्रयुज्यमानानाम् सामाजिक सञ्जालनम् सुरक्षाय गोपनीयताय उपयोगितायाश्च नियमनम् विधातुम् च संचार सूचना प्रविधि मन्त्रालय निर्दिष्टोऽस्ति। समित्या सर्वेषाम् सामुदायिकानाम् विद्यालयानाम् माध्यमिक स्तरे सर्वेषु स्थानीय स्तरेषु वडा कार्यालयेषु स्वास्थ्य संस्थासु च द्रुतगति अन्तर सञ्जाल सेवाया प्रापणस्य कार्यक्रम प्रभावकारी रूपेण क्रियान्वितुम् च निर्दिष्टमस्ति। नेपाली कांग्रेस दलस्य उपसभापति विमलेन्द्र निधि भाषते नागरिकताय विषय नेपालस्य दुई सप्तत्यधिक द्विशततम वैक्रमाब्दस्य संविधानस्य व्यवस्था विपरीततया विधि न निर्मातव्य इति दलस्य धारणा वर्तते। दलस्य केन्द्रीय नीत्यनुसन्धान प्रशिक्षण प्रतिष्ठानस्य संयोजने कांग्रेस दलस्य जनपद सभापतिभिः सह गतदिने विहिते सुसंख्य सांजालिकान्तर सम्वादे प्रतिष्ठानस्य प्रमुखस्य उपसभापति निधि अगदत् विधाय नियमाश्च संविधानस्य विपरीततया न निर्मातव्यः। गृहमन्त्री रामबहादुर थापा कथयति मादकौ सधानम् दुरूपयोगम् अवैध नयनानाम् च रोद्धुम् सकल समुदायानाम् सहकार्यम् आवश्यकम् वर्तते। मादकौ सध दुरूपयोगस्य अवैध नयनानस्य च विरोधिन अन्तर्राष्ट्रिय दिवसस्य अवसरे ह्यः शुभकामना सन्देशम् प्रकाश्य गृहमन्त्री थापा मादकौ सधानाम् निरोधनार्थम् स्वसन्ततिः प्रियजनानाम् च शीघ्रम् शुद्धिकरणाय सुमधुर पारिवारिक पुनस्थापनाय च बलम् अददात्। गतदिने अतिरिक्तेषु पञ्चशते त्रयोनवत्याम् च जनेषु कोरोना संक्रमणस्य पुष्ट्या सहैव नेपाले समग्रता संक्रान्तानाम् जनानाम् संख्या एकादश सहस्रम् पञ्चपञ्चाशदधिक सप्तशतम् च प्राप्त अस्ति। स्वास्थ्य जनसंख्या मन्त्रालयस्य ह्यस्तने नियमित संचार संक्षिप्त कार्यक्रमे मन्त्रालयस्य प्रवक्ता प्राध्यापक डाक्टर जागेश्वर गौतमः विभिन्नासु प्रयोगशालासु विहिते परीक्षणे गतदिने अतिरिक्तेषु षडशीत्यधिक शतचतुष्टये पुरूषेषु सप्ताधिक शते महिलासु च संक्रमण पुष्टिभूतम् अस्थिति अज्ञापयत्। एवमेव गतदिने अतिरिक्तानाम् अष्टचत्वारिंशत् जनानाम् संक्रमणमुक्ता सन्तः। गृह प्रत्यावर्तनानन्तरम् समग्रत प्राप्त स्वास्थ्य लाभानाम् जनानाम् संख्या सहस्रद्वयम् अष्टनवत्यधिक षट्शतम् च प्राप्ता वर्तते। एवमेव दाङ जनपर्ष राप्ती स्वास्थ्य विज्ञान प्रतिष्ठानस्य निकटे मृतावस्थायाम् प्राप्तायाम् आसन्न त्रिंशत् वर्षीया महिलायाम् संक्रमणस्य पुष्ट्या सहैव संक्रमणानन्तरम् मृतानाम् जनानाम् संख्या सप्तविंशति प्राप्तास्ति। नेपालस्य जनसंख्याया औपचारिक रूपेण कोटित्रयम् अतिक्रान्ता वर्तते। केन्द्रीय तथ्याङ्क विभागस्य अनुसार देशस्य जनसंख्या गतदिने कोटित्रयम् षट्शतम् चतुस्त्रिंशत् च प्राप्ता अस्ति। अष्टषष्ट्यधिक द्विशततम विक्रमाब्दस्य जनगणनायाः जन्म मृत्यु स्थानान्तरणानाम् अनुपातस्य तथ्याङ्कान् आधृत्य राष्ट्रस्य जनसंख्या कोटित्रयम् षट्शतम् चतुस्त्रिंशत् च प्राप्त इति विभागोऽसौ ज्ञापयति। राष्ट्रिय मानवाधिकार आयोगेन कोविड उनविंशतितः मृतानां व्यक्तिनां सम्मानजनक रूपेण स्थानीय निकाय सह समन्वय विधाय शव व्यवस्थापनस्य बाथरूम स्रष्टुं सर्वकार अनुरोध वर्तते। आयोगस्य सचिवेन वेद प्रसाद भट्टराई इत्यनेन गतदिने प्रकाशित विज्ञप्तौ वर्तमान विशेष परिस्थितौ सर्वकारेण क्रियान्वितस्य कार्यविधि प्रभावकारी रूपेण पालनायं सहयोगं प्रदातुं स्थानीय सर्वे सम्बद्ध निकायश्च अनुरुद्धा सन्ति। कास्की जनपदस्य पोखरा महानगरपालिकायाः द्वात्रिंशे वडा क्षेत्रे कोविड उनविंशत्या मृता व्यक्ति शव व्यवस्थापन क्रमे सुरक्षाकर्मिणां स्थानीय जनप्रतिनिधिनां स्थानीयवासिनां च मध्ये सम्भूतं संघर्षं प्रति ध्यानाकृष्टमस्तीति ज्ञापयता आयोगेन शव व्यवस्थापने अवरोधं न स्रष्टुं सर्वे अनुरुद्धा वर्तन्ते। उपसभामुखस्य रिक्तपदस्य पूर्तिम् अभियाच्य सर्वोच्च न्यायालये यो न्यायिक निवेदनं पञ्जीकारितं वर्तते। नेपालस्य संविधानानुसारेण उपसभामुखस्य अविलम्बं व्यवस्थायै परमादेशस्य आदेशम् अभियाच्य प्रधानमन्त्री मन्त्रिपरिषद कार्यालयं संघीय संसद अन्तर्गतै प्रतिनिधिसभां सभामुखस्य कार्यालयं च विधि न्याय संसदीय व्यवस्था मन्त्रालयं संघीय संसद सचिवालयं नेपाल विद्यायोगं च विपक्षिणो निर्धारय अधिवक्ता तुलसी सिमखडा भिदेन निवेदनमेतत् पञ्जीकारितम् अस्ति। संविधान अनुसारण उपसभामुख से पदम मासाद अधिकावधि रिक्तम न स्थापनीयमिति बाध्यात्मिक व्यवस्था स्थिति उल्लिख्य निवेदन एतस्य पदस्य निर्वाचन सम्बद्ध निकायनम् नाम्नि परमादेश आदेशं प्रदातुम् अनुरुद्धं वर्तते। इति समाचारः।